ಪ್ರತಿಗುಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋ ದಿವಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಚೇ ಭಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಿಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಗಿಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೆ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಗಿಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೇ ಧನುಃ ಶಿವಾಚರವ್ಯಾಯಾತವತಯಾ ನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾ ತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೀ ಸಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಗಶೀಃ ಯಾಮಿಷುಂ ಗಿರಿಶಂತಹಸ್ತೇಭಿಭರ್ಷ್ಯಸ್ತವೇ ಶಿವಾಂಗಿರಿತ್ರತಾಂಗುರುಮಾಭಿಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇ ನವಚಸಾ ತ್ವಾಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅಧ್ಯವೋಚದಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೇವ್ಯೋಭಿಷಕ್ ಅಹಿ ಗಚ್ಚ ಸರ್ವಾಗಾಂ ಭಯಂ ಸರ್ವಾಗಾಚ್ಯಯಾತು ಧಾನ್ಯಃ ಅಸವ್ಯಸ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರುಸ್ತು ಮಂಗಲಃ ಯೇ ಚೇವಾಗುಂ ರುದ್ರ ಅಪಿತೋ ದಿಕ್ಷುಶ್ರಿತಾತ್ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇದಗೇಮಹೆ ಅಸವ್ಯೋವಸರ್ಪತಿ ನೀಲಗ್ರೇವೋ ವಿಲೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುತಹಾದ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಧುಷೇಕೆ ಅಧೋಗೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇಭ್ಯೋಗರನ್ ನಮಃ ಪ್ರಮುಂಚ ಧನ್ವನತ್ವಮುಭಯೋರಾತ್ರಿಯೋರ್ಜ್ಯಾಂ ಯಾಸ್ಯ ದೇಹಸ್ತ ಇಷವ ಪರಾದಾ ಭಗವೋ ವಪ ಅವತತ್ಯಧನುಸ್ತ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷುಧೇ ನಿಷೇಧ್ಯ ಶಲ್ಯಾನಾ ಮುಖಾ ಶಿವೋ ನ ಸುಮನಾಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂಗಧಿಃ ಯಾತೇ ಹೇದರ್ಮೀ ದುಷ್ಟಮಹಸ್ತೇ ಬಭೂವತೇ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ತ್ವಮ ಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜಾ ನಮಸ್ತೇ ಅತ್ವಾಯುಧಾಯಾನಾತತಾಯ ದೃಷ್ಟವೇಕೇ ಉಭಾಭ್ಯಾಮುತತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋ ಯಗಿಷು ದಿಸ್ತವಾರೇ ಅಸ್ಮನ್ನಿದೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಿಂಬಗಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾಲಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃತ್ಯುಂಜಯಾಯ ಸರ್ವೇಶ್ವರಾಯ ಸದಾಶಿವಾಯ ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ನಾನೇ ದಿಶಾಂಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹ हरिकेशेभ्यः पशूनां पदये नमो नमः तस्मिन् च राजत्विषे मते पतीनां पतये नमो नमो बभ्लुषाय व्याधिनिन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टाणां पतये नमो नमो भवस्य हेत्ये जगतां पतये नमो नमो रुद्राय तथाविने क्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय सपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवत्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाया क्रन्दयते भक्तीनां पतये नमो नम कृष्णवेताय धावते सत्त्वनां पतये नमः नमः सगमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणीके स्थेनानां पतये नमो नमो निषङ्गिणगिषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते तायूनां पतये नमो नमो निचेरवे परिचर्यारण्यानां पतये नमो नमः श्रृकाविभ्यो जिगागुन्दद्भ्यो मुष्णतां पतये नमो नमो सिमद्भ्यो नक्तं चरद्व्यप्रग्रन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम यिषुमद्भ्यो तन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनीकेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्य त्रिगुंहतेभ्यश्च वो नमो नमो कृत्सेभ्यो कृत्सपदेभ्यश्च वो नमो नमो प्रातेकेभ्यो प्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्यः चुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेकेभ्यो रथपतेभ्यश्च वो नमो नम सेनागाभ्यसेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो रदकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेकेभ्यश्च वो नमो नमः पुञ्जिष्टेकेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमस्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः चर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेदुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाजिराय च नम शीघ्रियाय च शेभ्याय च नम ओर्म्याय च वत्सन्याय च नम श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नम पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जगन्याय च बुद्धयाय च नमः सोभ्याय च प्रतिसद्याय च नमो याम्याय च क्षेम्याय च नम उत्पत्त्याय च गल्याय च नम श्लोक्याय चावधान्याय च नमो वन्याय च कक्ष्याय च नम श्रवाय च प्रतिश्रवाय च नम आशुषेनाय चाशुरधाय च नम शूलाय चावविन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्मिने च कवचिने च नम श्रुताय च श्रुतसेनाय च नमो दुन्दभ्याय च अनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषुधिमते च नमः तेष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सदस्याय च नमो नात्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः चङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे पथाय च दूरे पथाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयत्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोज्याय च नमः पाद्याय च वाद्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय जालाद्याय च नमः षष्ट्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षगणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेष्ट्याय च नमः pagam sapyaga jarajat yaga janama shashtyaga jaharityaga janamo lopyaga cholapyaga janama orgyaga jasorgyaga janama parnyaga japanna chadyaga janamo paguramanaga jabhigrate janama akhidate japrak Kedate janamovat kirikebhyo devanagam hrutagebhyo namo vikshinakebhyo namo vichinvatkebhyo namo anirhatebhyo namo amivatkebhyah drape andhasatpade daridranilalokhitam Esham purushanam, esham pashunam, mabher marobo gesham kinchanamamate, yate rudra shiva tano shiva vishwaka bheshaji, shiva rudratya bheshaji tayano mrida jivase, Imagum rudraya tavaseka paddine gethayadviraya prabara mahematim yathanashyama chadvipade chatushpade vishyam pushtangrami asminnanaturam vridano rudrotano mayatkritikshayadviraya namasavidhemate Yacham tayocham anuragya jepita tatasya matavarudra pranito mano mahanta mutamano ardhagam mana ukshanta mutamana ukshitam mano vade pitaram motamataram priyamana tanugorudra ririshaha Manasto ketanaye mana ayushi mano goshu mano ashveshuririshaham Viran mano rudrabhamito vadir avishmanto namasa vidhemate Arate gogramutaporu shagne shayadviraya sumnamasmete asto Rakshajano adijadeva brohyadajana sharmayachadvibaruha Suhishrutangatta sadanyovanam mruganna bhimamupahatramugram Vridajaridre rudrastavano anyante asmannivapantu senakaha Parino rudrasya ghetar pranakto paritveshasya durmadira ghayo Avastira magavadhyasta nushramidhato kayatana yaya mridaya Midhushta mashivata mashivonatto manabhava Parame vriksha ayudhan nidhaya kratyam vasana machara pinaka vibhrata gahi Vikirita vilochita namaste atto bhagavaha Yaste sahasragum hetayonyamasmannivapantutaha Sagasrani sagasradabhavuvostavahetayaha Tasamishano bhagavaparachinamukagade Sagasrani sahasrajoye rudra adibhomyam Teshagum sahasrayo jane vadhanmani tanmase Asmin mahatyar navein darikshe bhava adi Nilagriva shitikantha sharva alaha kshamachara Nilagriva shitikantha divagum rudra upashrita Te vrikshesu satpinjara nilagriva vilohita Ye bhuta namadipatayo vishikasakka paddinaha Ye anne shubhivedyanti patre shubhivado jalana Ye patam patinakshaya aila pradaya vyudaha ఏ తీర్థాని ప్రజలంతి శృకావంతో నిషంగిణః యగేతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్తిరే తేషాగుంసకత్రయో జనే బధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివిగే శావన్నం వాతో వరుషమిష వస్తేభ్యో దశ ప్రాచే దశ దక్షిణా దశ ప్రదేచేర్దశో దేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృడయంతు దేయం దిష్మో యశ్చ నో ద్వేష్టితం వోజం దధామి త్రిమ్బకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షేయమామృతాత్ యో రుద్రో అగ్నయో అప్సుయ ఔషధేషు యో రుద్రో విశ్వ ఉవనాదివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశాదృత్యోర్మర్త్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వానవయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః నమో రుద్రాయ విష్ణవే మృత్యన్మే పాహి తముష్టు హియస్సుషుసుదన్వాయో విశ్వస్య క్షయదివేశజస్య యక్ష్వా మహేశో మనసాయ రుద్రన్నమో దేవమసురందువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభేషజో యగుం శివాభిమరుషనః ఓం శాంతి 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 విష్ణో సజోష సేవాబద్ధంతో వాంగిరః ధ్యుమ్నైర్వాచేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే ధృతిశ్చ మే జ్యోతిశ్చ మే శుభశ్చ మే ప్రాణశ్చ మే పానశ్చ మే ధ్యానశ్చ మే స్వశ్చ మే చిత్తం చ మహాధీతం చ మే వాచ్చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే ఫలం చ మహోజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగం చ మే శరీరాణి చ మే జైశ్చం చ మాధిపత్యం చ మే మన్యశ్చ మే భామశ్చ మేమశ్చ మేంభశ్చ మే దేవా చ మే మహిమా చ మే మహిమా చ మే ప్రతిమా చ మే వష్మా చ మే రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్వేషశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యత్ చ మే సుఖం చ మే సుపతం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లుప్తం చ మే క్లుప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే
शं च मे मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे
क्षेमश्च मे
धृतिश्च मे विश्वं च मे महश्च मे संवेच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे स्थिरं च मे लयश्च मरुतं च मे व्रतं च मे यक्ष्मं च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वं च मे अमित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओच्च मे सोदृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्यश्च मे सपेदश्च मे कृशश्च मे पृष्टश्च मे जयत्रं च मौद्भृत्यं च मे तयश्च मे रायश्च मे पुष्टं च मे पुष्टश्च मे विभु च मे प्रभु च मे बहु च मे भोज च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाच्च मे नं च मे शुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे उद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गमश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च म अग्निश्च म आपश्च मे तेरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तं च मे वित्तश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च म अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे
अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च महिन्द्रश्च मे सरस्वती च महिन्द्रश्च मे पूषा च महिन्द्रश्च मे बृहस्पतिश्च महिन्द्रश्च मे मित्रश्च महिन्द्रश्च मे वरुणश्च महिन्द्रश्च मे त्वष्टा च महिन्द्रश्च मे धाता च महिन्द्रश्च मे विष्णुश्च महिन्द्रश्च मेऽश्विनौ च महिन्द्रश्च मे मरुतश्च महिन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च महिन्द्रश्च मेऽन्तरिक्षं च महिन्द्रश्च मे द्योश्च महिन्द्रश्च मे दिशश्च महिन्द्रश्च मे मूर्धा च महिन्द्रश्च मे प्रजापतिश्च महिन्द्रश्च मे
ॐ अगुंसुश्च मे
रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुं सुश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रा वरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दे च म आग्रयणश्च मे
वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मे दिग्राह्याश्च मैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्पतयाश्च मे मागेन्द्रश्च मदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इत्मश्च मे बर्हिश्च मे वेदश्च मे दृष्टयाश्च मे सृजस्य मे चमदाश्च मे ग्रावाणश्च मे स्वरवश्च म उपलवाश्च मे दृशवने च मे द्रोणकलतश्च मे वायव्याने च मे बोधभृश्च म आधवनीयश्च म आग्नेयेधम् च मे हविर्दानम् च मे गृहाश्च मे सदश्च मे प्रोडाशाकाश्च मे पचताश्च मे बभृतश्च मे स्वगाकारश्च मे अग्न्यश्च मे घर्मश्च मेऽर्कश्च मे सौर्यश्च मे प्राणश्च मे स्वमेधश्च मे पृथिवी च मे दिदिश्च मे दिदिश्च मे द्योश्च मे शक्वरेरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोर्दृष्ट्या बृहद्धरन्तरे च मे यज्ञेन कल्पेता गर्भाकाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौरे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौरे च मे पष्टवाच्च मे पष्टौहे च म उक्षा च मे वशा च म ऋषभश्च मे देहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता श्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे त्रिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मगेकविगुंसदिश्च मे त्रयो विगुंसदिश्च मे पञ्च विगुंसदिश्च मे सप्त विगुंसदिश्च मे नव विगुंसदिश्च मगेक त्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेष्टा विगुंसतिश्च मे द्वात्रिगुंसच्च मे क्षत्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मेष्टा चत्वारिगुंसच्च मे वाजश्च प्रसवश्चाभिजश्च क्रतुश्च शुभश्च मूर्धा च व्यस्तिगत्याङ्क्यायनश्चाङ्क्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनि मृगस्तधिरुद्धा मदानि जगुंसि च विश्वे देवासो गोक्तवाच पृथिवीमातर्मागिगुंसेर्मधुमदिष्ये मधुजनिष्ये मधुभक्ष्यामि मधुमदिष्यामि मधुमते देवेभ्यो वाच मुद्यातगुं शुश्रोषेण्या मनुष्येभ्यस्तं मा देवा अवन्तु शोभाये पितरो नु मदन्तो ॐ शान्ति शान्ति शान्तिः ॐ तच्चयो रावृणीमहे गातुं यज्ञाय गातुं यज्ञपदये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति 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 सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपाद् सभोऽयं विश्वतो वृत्ता अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुं सर्वम् यद्भूतं यच्च भव्यम् उदामृतत्वस्येषानः यदन्येनातिरोहति एतावानस्य महिमा कतो ज्यायागस्य पुरुषः पादोऽस्य विश्वाभूतानि त्रिपालस्यामृतम् दिवे त्रिपादो द्वौदैपुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् चाशनानशने अभि तस्माद्विराजायत विराजो अधिपुरुषः स जातो अत्यनिच्यत पश्चाद्भूमिमथो पुनः यत्पुरुषेणाविशा देवायज्ञमतन्वता वसन्तो अस्यासीराज्यम् ग्रीष्म इद्मः शरद्दमिः सप्तास्यासन् परिदयः त्रिसप्तसविदकृताः देवायज्ञज्ञम् तन्वानाः अवर्धन् पुरुषम् पशुम् तञ्यज्ञम् बलिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साद्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषधाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वहुतः वृषस्सा वारिजग्निरे छन्दागुंसि जग्निरे तस्माद् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचो भयादतः गावो हजग्निरे तस्माद् तस्माज्जाता अजावयः यत्पुरुषम् यददोः कलिदाव्यकल्पयन् मुखम् किमस्य कौ बाहो का भूरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यकृतः ओरो तदस्य यद्वैष्यः
पद्भ्यागुं शूद्रो अजायत चंद्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रस्याग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पाले सर्वाणि रूपाणि विचित्यधीरः नामानि कृत्वाभिवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हलाकम् महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अध्यस्सम्बोध पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य स्पष्टा विददद्रूपमेति तत्पुरुषस्य विश्ववाजानमग्रे वेदामेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते अनाय प्रजापतिः सरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुजाय ब्राह्मये रुजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेशते लक्ष्मी च भद्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ यातम् इष्टम् मनिषाना अमुम् मनिषाना सर्वम् मनिषाना तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् षण्णो अस्तु द्विपदे षम् चतुष्पदे ओ शान्ति शान्ति शान्तिः ॐ त्रिणात्वाकृणेहर्णे कर्णेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा तपतिर्हतः अधो मादाधो पिता अधो स्थूला अधो क्षुद्रा अधो कृष्णा अधो श्वेता अधो आशादिका सदा
श्वेताभिः सह सर्वे हताः आहलावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यवस्य जम्भयोः आदधामि तथा हि तत् खण्वन्वते ओ शान्ति 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 ॐ संसमित्युवसे वृषन्नग्ने विश्वान्य इरस्पते समित्यसे तनो वसोऽन्याफला सङ्गच्छध्वं संवदध्वं सम्भो मनांसि जानता देवाभागं यथा पूर्वे सञ्जानानामुपासते समानो मन्त्रसमिति समानी समानं मनसः चित्तमेषाम् समानं मन्त्रमभिमन्त्र एव समानेन वो भविषा जुहोमि समानीव आगो समाना हृदयानिव समानमस्तु वो मनो यदा सुदासते ओ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगम् भुवेमा प्रातर्जितम् भगमुग्रगम् भुवेम वयम् पुत्रमलिदेर्यो विभट्टा आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा छिद्यम् भगम् भक्ष्येत्याः भग प्रणेतर्भग सत्यराधो भगे माम् धियमुदवदन्नः भग प्रणो जनयगोभिरश्वैर्भग प्रणविर्नृवन्दस्याम उदेदानीम् भगवन्दस्यामोत प्रवित्त उत मध्ये अह्ना उदोदिता भगवन् सूर्यस्य वयम् देवानागुम् सुमतो स्याम भगगेव भगवागुमस्तु देवास्तेन वयम् भगवन्दस्याम सन्ता भगः सर्व इज्जो हवेमि सनो भगपुरगेता भवेह समद्वरायोषसो न मन्दधिक्रावे वशुचये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्व वाजिनावहन्तो अश्वावतेर्गोमतेर्न उषासो वीरवति सदमुच्यन्तु भद्राः घृतम् दुहाना विश्वतप्रपीडा योऽयम् वाद स्वस्तिभिः सदा नः यो माग्ने भागिनगम् सन्तमथा भागम् चिकीर्षते अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः वर्णाम् हरिणीम् सुवर्णरजतत्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् कामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनाकादप्रबोधिनीम् श्रियम् देवेमुपक्वये त्रेर्मासा देवे जुषताम् काम् सोऽस्मिताम् हिरण्य प्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् कामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्ते श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये लक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽभिजातो वनस्पतिस्तव वृक्षोद बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च भाग्या अलक्ष्मीः उपैतु माम् देवसखः कीर्तिश्च मणिना सह प्रातुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् दधातु मे शुक्मिपाशापलाम् ज्येष्ठापलक्ष्मीर्नाशयाम्यहम् अभूतिमसवृद्धिम् च सर्वानिर्नुत मे गृहात् गन्धद्वाराम् दुरादर्श्याम् नित्यपुष्टाम् करीषिणी ईश्वरेकम् सर्वभूतानाम् कामिहोपक्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहे पशूनाम् रूपमन्नस्य मयि श्रेश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिनी आपत्सृजन्तु स्निग्धानी चिक्लेतव समे गृहे निज देवे मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह आर्द्राम् यत्करणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपगामिनीम् यस्याम् हिरण्यम् प्रबोधम् गावोदास्योऽश्वाकान् विन्देयम् पुरुषानहम् यस्युचि प्रयतो भूत्वा जुहूयादाज्यमन्वहम् श्रियम् पञ्चदशक्षम् च श्रीकामः सदसम् जपेत् पद्मानने पद्म ऊरु पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदाये गोदाये धनधाये महाधने धनम् मे जुषताम् देवीम् सर्वकामाश्च देहि मे पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिकवेरथम् प्रजानाम् भवसि माता आयुष्मन्तम् करोतु माम् धनमग्रधनम् वायुर्धनम् सूर्यो धनम् वसुः ధనమింద్రో బృహస్పతిర్వరుణం ధనమశ్నుదే వైలధేయసోమం విభసోమం విభదు వృత్రః సోమం ధనస్య సోమినో మహ్యం దదాతు సోమినః న క్రోధో న చ మాత్సర్యం న లోభో నాశుభామతిః భవంతి కృత పుణ్యానాం భక్తానాం శ్రీసూక్తం జపేత్ సదా పశ్యంతు దేవి భావరీ దివో అభ్రస్య విద్యుతః రోహంతు సర్వబీజాన్య బ్రహ్మ దిశో జహి పద్మప్రియే పద్మిని పద్మహస్తే పద్మాలయే పద్మదళాయతాక్షీ విశ్వప్రియే విష్ణుమనోనుకూలే త్వత్పాద పద్మం మయి సన్నిధస్త్వా యాసా పద్మాసనస్తా విపులకటితటే పద్మపత్రాయతాక్షీ గంభీరావర్తనాభిస్తనభరనమిత శుభ్రవస్త్రోత్తరీయా లక్ష్మీర్దివ్యైర్గజేంద్రైర్మణిగణఖజితైః స్నాపితా హేమకుంభైః నిత్యం సా పద్మహస్తా మమ వసతు గృహే సర్వమాంగల్యయుక్తా లక్ష్మీం క్షీరసముద్రరాజతనయాం శ్రీరంగధామేశ్వరీం దాసీభూతసమస్తదేవవనితాం లోకైకదీపాంగులాం శ్రీమన్మందకటాక్షలబ్ధవిభవబ్రహ్మేంద్రగంగాధరాం తాం త్రైలోక్యకుటుంబినీం సరసిజాం వందే ముకుంద ప్రియాం సిద్ధలక్ష్మీర్మోక్షలక్ష్మీర్జయలక్ష్మీ సరస్వతీ శ్రీలక్ష్మీర్వరలక్ష్మీ చ ప్రసన్నా మమ సర్వదా వరాంకుశోపాశమభీతి ముద్రా కరైర్వహంతీం కమలాసనస్తాం బాలార్కకోటి ప్రతిభాం త్రినేత్రాం భజేహమంబాం జగదీశ్వరీం త్వాం సర్వమంగళమాంగల్యే శివే సర్వార్థసాధికే శరణ్యే త్ర్యంబకే దేవీ నారాయణి నమోస్తుతే మహాలక్ష్మీ చ విద్మహే విష్ణుపత్నీ చ ధీమహి తన్నోదర ప్రచోదయాత్. ఓం శాంతి శాంతి శాంతి. ఈశాన సర్వ విద్యానామీశ్వర సర్వభూతానాం బ్రహ్మాధిపతి బ్రహ్మణోధిపతి బ్రహ్మా శివో మే అస్తు సదా శివోం తద్విష్ణోర్పరమం పదగం సదా పశ్యంతి సూరయః దివిభచక్షురాతతం తద్విప్రాదో విపన్యభో జాగృవాగం తస్సమిందతే విష్ణోర్యత్పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణుప్రచోదయాత్. తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్. ఓం సాయేశ్వరాయ విద్మహే సత్యదేవాయ ధీమహి తన్నః సర్వ ప్రచోదయాత్. హంస హంసాయ విద్మహే పరమహంసాయ ధీమహి తన్నోహంస ప్రచోదయాత్. స్వస్తి ప్రజాభ్య పరిపాలయంతం న్యాయేన మార్గేణ మహీం మహీషాః. గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు సమస్త లోకాః సుఖినో భవంతు ఓం శాంతి శాంతి శాంతి.